ओम नमो भगवते वासुदेवाय। अथाश्च सप्ततितमोऽध्यायः। श्रीशुक उवाच, शिशुपालस्य साल्वस्य पौण्ड्रकस्यापि दुर्मतिः, परलोकगतानां च कुर्वन् पारोक्ष्य सहृदम्। एकः पदाति संक्रुद्धो गदा पाणिः प्रकम्पयन्, पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत। तं तथायान्तमालोक्य गदामादाय सत्वरः, अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात्। गदामुद्यम्य कारुषो मुकुन्दं प्राह दुर्मदः, दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः। त्वं मातुलेयो नः कृष्ण मित्रधृङ् मां जिगांसति, अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया। तर्यान्द्रिण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः, बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा। एवं रुक्षैस्तुदन् वाक्यै कृष्णं तोत्रैरिव द्विपम्, गदया ताडयन् मूर्ध्नि सिंहवत् व्यनदच्च सः। गदयाभिहतोऽप्याजौ न चचालयदूद्वहः, कृष्णोऽपि तमहन् गुर्व्या कौमोदक्यास्तनान्तरे। गदा निर्भिन्नहृदय उद्वमन् रुधिरं मुखात्, प्रसार्य केशबाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः। ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्, पश्यतां सर्वभूतानां यथा चैद्यवधे नृप। विदुरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः, आगच्छदसि चरमभ्यामुच्छ्वसंस्तज्जिगांसया। तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना, शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम्। एवं सौभं च साल्वं च दन्तवक्त्रं सहानुजं, हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः। मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः, अप्सरोऽपि पितृगणैर्यक्षैः किन्नरचारणैः। उपगीयमानविजयः कुसुमैरभिवर्षितः, वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम्। एवं योगेश्वरः कृष्णो भगवान् जगदीश्वरः, ईयते पशुदृष्टीनां निर्जितो जयतीति सः। श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः, तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल। स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान्, सरस्वतीं प्रतिश्रोतं ययौ ब्राह्मणसंवृतः। पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनं, विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीं। यमुनामनुयान्येव गङ्गामनु च भारत, जगामनैमिषं यत्र ऋषयः सत्रमासते। तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः, अभिनन्द्य यथा न्यायं प्रणम्योत्थाय चार्चयन्। सोऽर्चितः सपरिवारः कृतासनपरिग्रहः, रोमहर्षणमासीनं महर्षे शिष्यमैक्षत। अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम्, अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधवः। कस्मादसा विमान् विप्रानध्यास्ते प्रतिलोमजः, धर्मपालान् तथैवास्मान् वधमर्हति दुर्मतिः। ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च, सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः। अदान्तस्याविनीतस्य वृथा पण्डितमानिनः, न गुणाय भवन्ति स्म न तस्यैवाजितात्मनः। एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः, वध्यामि धर्मध्वजिनस्ते हि पातकिनोऽधिकाः। एतावदुक्त्वा भगवान् निवृत्तो सद्वधादपि, धावित्वात्तं कुशाग्रेण करस्थेनाहनत् प्रभुः। हा हेऽपि वादिनः सर्वे मुनयः खिन्नमानसाः, ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो। अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन, आयुश्चात्मा क्लमं तावत् यावत् सत्रं समाप्यते। अजानतैवाचरितस्त्वया ब्रह्मवधो यथा, योगेश्वरस्य भवतो नाम्ना योऽपि नियामकः। यद्येतत् ब्रह्महत्यायाः पावनं लोकपावन, चरिष्यति भवान् लोकसङ्ग्रहो नन्यचोदितः। श्रीभगवानुवाच, करिष्ये वत निर्वेशं लोकानुग्रहकाम्यया, नियमः प्रथमे कल्पे यावान् स तु विधीयताम्। दीर्घमायुर्वतैतस्य सत्त्वमिन्द्रियमेव च, आशासितं यत्तद्ब्रूत साधये योगमायया। ऋषय ऊचुः, अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च, यथा भवेद्वत सत्यं तथा राम विधीयताम्। श्रीभगवानुवाच, आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम्। तस्मादस्य भवेद् वक्ता आयुरिन्द्रिय सत्त्ववान्। किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाणि यथ अजानतस्त्वपचितिं यथा मे चिन्त्यतां बुधाः। ऋषय ऊचुः इल्वलस्य सुतो घोरो बल्वलो नाम दानवः। सदूषयति न सत्रमेत्य पर्वणि पर्वणि तं पापं जहि दासार्ह तन्न शुश्रूषणं परम्। पूयशोणितविण्मूत्र सुरा मांसाभिवर्षिणं ततश्च भारतं वर्षं परीत्य सुसमाहितः। चरित्वा द्वादशमासान् तीर्थस्नायी विशुध्यते। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवचरिते बलबलवधोपक्रमो नामाष्टसप्ततितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।